इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। संसदः संयुक्त सदने राष्ट्रपतेः अभिभाषणस्य धन्यवाद प्रस्तावे लोकसभा राज्यसभयोः ह्यः चर्चा समनुष्ठिता। चर्चावधौ विपक्षदलीयः नेता कांग्रेसदल सांसदः च राहुल गांधी उक्तवान् यत् राष्ट्रपतेः अभिभाषणं प्रशासनस्य प्राप्तोपलब्धीनाम् एका दीर्घा सूची वर्तते। वृत्त्यभाव विषये श्रीगांधी अवदत् यत् देशस्य भविष्यं यूनां हस्तयोः वर्तते, तत्सम्बद्धं प्रकरणं सर्वप्रथमं उत्थापनीयम्। असौ अग्रे उक्तवान् यत् इदं प्रशासनं वृत्त्यभावं दूरीकर्तुं विफलमस्ति। अन्ते च असौ कथितवान् यत् संविधानं सर्वोच्चं, देशस्य च सर्वदा मार्गदर्शनं करिष्यति। इतः पूर्वं भाजपेति दलसांसदः रामवीरसिंह बीधुडी इत्यसौ नरेन्द्रमोदिनः नेतृत्वयुतप्रशासनस्य अधिगतोपलब्धयः सूचीबद्धं कृतवान्। अस्यां सूच्यां जनकल्याणकारिण्यः योजनाः अपि सम्मिलिताः आसन्। असौ दिल्ल्यां 17% यावत् अनधिकृत उपनिवासानां निवासिभ्यः स्वामित्वाधिकार प्रदानाय केन्द्रप्रशासनेन उत्थापितानां पदक्षेपाणामपि उल्लेखं कृतवान्। श्रीबीधुडी इत्यसौ नगरे प्रतिकूल मार्गस्थितिः, वायुप्रदूषणं, सार्वजनिक परिवहनं प्रकरणम् उत्थापितवान्। भाजपेति दलसांसदः रविशंकर प्रसादः आक्षिप्तवान् यत् यदा महाकुम्भस्य वार्ता भवति तदा कांग्रेसदलम् अप्रसन्नतां प्रकटयति। अपरत्र साम्प्रतं यावत् 35 कोटिजनाः पवित्रस्नानं तत्र कृतवन्तः। भूटानदेशस्य नरेशः जिग्मे खेसर नामग्याल वाङ्गचुक इत्येषः अद्य प्रयागराजं महाकुम्भं प्रति यास्यति। तत्र असौ त्रिवेण्यां संगमे पवित्रावगाहनं समाचरिष्यति। भूटान नरेशः ह्यः उत्तरप्रदेशे लखनऊ नगरं सम्प्राप्तवान्। देश विदेशयोः कोटिशः श्रद्धालवः महाकुम्भे एतस्मिन् सम्मिलिताः भवन्तीति। एते श्रद्धालवः गंगा, यमुना, सरस्वती नदीनां संगमघट्टे स्नानं समाचरन्ति। भूटानदेशस्य राजा प्रयागराजे अक्षयवटं, बड़े हनुमान मन्दिरं च प्रति दर्शनार्थं गमिष्यति। अत्रावसरे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अपि उपस्थितो भविष्यति। 70-सदस्यात्मिकीयायै दिल्ली विधानसभायै श्वः मतदानं भविष्यति। निर्वाचनात् प्राक् सर्वविध सज्जताः क्रियमाणाः वर्तन्ते। मतदानं बुधवासरे प्रातःकाले 7 वादनात् सायंकाले 6 वादनपर्यन्तं प्रचलिष्यति। 99,600 संख्यकानां प्रत्याशीनां नियते निर्णयम् आहत्य 56,00,000+ करिष्यन्ति। ह्यः निर्वाचन प्रचारः अवसितः। मतगणना शनिवासरे भविष्यति। निर्वाचनायोगः भूयोपि 1,50,000 यावत् कर्मिणः नियुक्ताः कृतवान्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां जम्मूकश्मीरे समायोक्ष्यमाणस्य एकस्य सुरक्षा समीक्षोपवेशनस्य अध्यक्षतां करिष्यति। एतस्मिन् उपवेशने जम्मूकश्मीरस्य उपराज्यपालः मनोज सिन्हाः, गृहसचिवः गोविन्द मोहनः, गुप्तचर विभागानां प्रमुखाः, अन्ये च वरिष्ठाधिकारिणः उपस्थिताः भविष्यन्ति। सिंगापुरदेशे वर्ल्ड टेबल टेनिस इत्येतस्यां प्रतिस्पर्धायां मानुष साह दियाचिताले इत्यनयोः भारतीय मिश्रित युगलम् अद्य 16 चक्रे मैक्सिको देशस्य मार्कोस मैड्रिड अरांसा कोसियो इत्युभाभ्यां सह क्रीडिष्यति इति वार्ता।